येनाक्षरनाम्नाय मध्यम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः समश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। ऐवण् ऋल्लुक् ए ओं अयौच हयवरट् लण् ण्यमगणनम् झभै घढधश् जबगडदश् खाफ छठथ चटतौ कपै शशसर् हल् इति माहेश्वराणि सूत्राणि। सर्वेभ्यो नमः। वयम् अद्य चतुर्थकक्षायां वर्तामहे। गतसप्ताहे अस्माभिः सूत्रं नाम किं, सूत्रस्य लक्षणं किम् इत्यधीतम्। ईषदिव तत्र सिंहावलोकनं कृत्वा ततः अग्रे सरामः। गतसप्ताहे अस्माभिः दृष्टम् अल्पाक्षरमसन्दिग्धम् सारवद्विश्वतोमुखम् अस्तोभमनवद्यम् च सूत्रम् सूत्रविदो विदुः इति। सूत्रम् कीदृशम् भवेत् इत्यस्मिन् विषये अस्माभिः केचन विचाराः दृष्टाः। तथा हि सूत्रम् यद्भवति तत् अल्पाक्षरम् भवेत्। अल्पाक्षरम् नाम अल्पानि अक्षराणि यस्मिन्, अर्थात् विवक्षितमर्थम् यावद्भिरक्षरैः प्रतिपादयितुम् शक्यम् तावदक्षरोपेतत्वम् इत्यर्थः। विस्तृततया गतकक्षायाम् अस्माभिः दृष्टम्, अतः नाहम् तस्मिन् विषये अधुना प्रवर्त्य। असन्दिग्धम् नाम यत्र सन्देहलेशोऽपि न भवति, तादृशम् किञ्चित् यत् भवति तर्हि तत् सूत्रम् भवति। सारवत् यस्मिन् सारः भवति, सारो नाम सारो बले दृढांशे च इत्यमरे अस्ति, अर्थात् अल्पाक्षरमिति यदुक्तम् अल्पेषु अक्षरेषु यदि दृढाः अंशाः सर्वाः सर्वेऽपि अंशाः यदि पूरिताः स्युः तर्हि तादृशम् यत्किञ्चित् भवति तत् सूत्रम् भवति। सूत्रेषु एतानि सर्वाणि लक्षणानि भवति चेदेव तस्य सूत्रत्वम्, अन्यथा तस्य सूत्रत्वम् सर्वथा न सङ्गच्छति। विश्वतो मुखम्, विश्वतः सर्वतः इत्यर्थः, मुखम् यस्य तत् सूत्रम् भवति। अर्थात् एकः एव अर्थः तत्र प्रतिपादितः स्यात् इति न भवेत्, बहवः अर्थाः युगपत् तस्मिन् प्रतिपादिताः स्युः, अथवा एकेनैव सूत्रेण बहूनां लक्ष्याणां सिद्धिः भवेत्, तथा चेत् तत् सूत्रम् भवति। विश्वतो मुखम् इत्युक्ते सर्वतः मुखम्, केवलम् एकम् पदम् साधयितुम् तस्य सूत्रस्य उपयोगः न स्यात्, बहूनि लक्ष्यानि तत्र साधितानि स्युः, अतः तत् सूत्रमिति उच्यते। अस्तोभम् नास्ति स्तोभः यस्मिन् रोधः। सामवेदादिषु केषाञ्चन वर्णानाम् विशेषतया उच्चारणम् क्रियते मध्ये मध्ये रोधार्थम्, तत् रागवत् यथा गच्छेत् इत्यादि सङ्गीतादि ज्ञानम् येषाम् भवति ते प्रायः तदवगच्छन्ति। तत्र केषाञ्चन वर्णानाम् यद्यपि तत्र उपयोगः नास्ति तथापि रोधार्थम् तेषाम् उपयोगः क्रियते, सामवेदेषु विशेषतया तस्य प्रयोगः दृश्यते। तादृशस्य स्तोभः इत्युच्यते। तादृशवर्णानाम् उपयोगः यत्र न स्यात् तादृशम् यदि भवति तर्हि तत् सूत्रम् भवति इति दृष्टम्। अनवद्यम् न अवद्यम्, अवद्यम् नाम गर्ह्यम् इत्यर्थः, गर्ह्यम् नाम निन्दितम् इत्यर्थः। निन्दितं किञ्चित् नास्ति इत्युक्ते तत् सूत्रं भवति। निन्दितं नाम मया किञ्चित् गतपर्याये उक्तं यत् यत्र हि अन्येषां मतानां निन्दनं क्रियते तादृशं न किञ्चित् अत्र भवति चेत् तत् सूत्रं भवति। यथा बहूनि व्याकरणानि अभूवन् इत्यस्माभिः श्रूयते, ऐन्द्रश्चान्दं काशकृत्स्नम् इत्यादीनि, तेषु व्याकरणेषु विद्यमानानां विचाराणाम् अत्र निन्दनं नास्ति। कुत्र? पाणिनीय अष्टाध्याय्याम्। अतः तत्तानि यानि पाणिनीना उच्चारितानि तानि सूत्राणि भवन्ति। यतोहि प्रत्येकमपि सूत्रे तेन अनवद्यान्येव पदानि निवेशितानि, अतः तानि सूत्राणि इत्यभिधीयन्ते। अतः सूत्रलक्षणम् एवं सिद्धम्, अल्पाक्षरमसन्दिग्धम् सारवद्विश्वतोमुखम् अस्तोभमनवद्यम् च सूत्रम् सूत्रविदो विदुः इति। अष्टाध्याय्याः इदानीम् अद्यतनकक्षायाम् अष्टाध्याय्याः सामान्यपरिचयम् किञ्चित् पश्यामः। सर्वेऽपि जानन्ति अष्टाध्याय्याः रचयिता भगवान् पाणिनिः भवति। अस्याम् अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति। अष्टाध्यायी इति ग्रन्थस्य श्रवणमात्रेण एतदवगम्यते अस्मिन् ग्रन्थे अष्टौ अध्यायाः सन्ति इति। एवञ्च यदा अष्टौ अध्यायाः सन्ति इति कथनेनैव अष्टाध्यायी इति ग्रन्थस्य श्रवणमात्रेण अष्टौ अध्यायाः सन्ति इति अवगच्छामः। तत्र प्रत्येकम् अध्याये चत्वारः पादाः सन्ति। अत्र कश्चन दोषः अस्ति, द्वात्रिंशत् इत्यस्य मया कोष्टके दोषवशात् नव इति लिखितम्, 32 इत्यर्थः। अष्टाध्याय्याम् चत्वारः पादाः प्रत्येकम् अध्याये सन्ति। अष्टौ अध्यायाः प्रत्येकम् अध्याये चत्वारः पादाः, अतः आहत्य अष्टाध्याय्याम् सम्पूर्णे अष्टाध्याय्याम् द्वात्रिंशत् अध्यायाः सन्ति इति फलति। सूत्रसङ्ख्या प्रायः 4000 सूत्राणि अष्टाध्याय्याम् सन्ति। कुतः मया प्रायः 4000 सूत्राणि इति लिखितम्, कुतः स्पष्टनिर्णयः न कृतः इति चेत्, तत्र अधुना उपलभ्यमानेषु ग्रन्थेषु अष्टाध्यायीग्रन्थेषु सर्वत्रापि सूत्राणि विभक्तानि सन्ति। यथा उदाहरणार्थम् वृद्धिरादैच एकम् सूत्रम्, अदेङ्गुणः द्वितीयम् सूत्रम्, इको गुणवृद्धि इति तृतीयम् सूत्रम्, एवम् क्रमेण सूत्राणि विभक्तानि सन्ति। पुरा यदा अस्याः अष्टाध्याय्याः रचना अभूत् तदा ग्रन्थोऽयम् संहितारूपेण आसीत्। संहितारूपेण नाम यत्र विभागः नास्ति, योजयित्वा एतेषाम् पठनमभूत् सन्धिद्वारा। वृद्धिरादैजदेङ्गुणः इको गुणैकोगुणवृद्धि इत्येवम् क्रमेण। तत्र विभागः क्व कर्तव्यः, कुत्र कर्तव्यः, कुत्र न कर्तव्यः इत्यादि विचाराः अनन्तरम् भाष्यकारैः वार्तिकारैः च विचिन्त्य विभागः कृतः। तत्र विभागे कृते सूत्राणां यद्यपि स्वरूपं तथैव तिष्ठति तथापि क्वचित् योगविभागः इत्यस्ति। सूत्रस्य द्विधा खण्डनं क्रियते, कालान्तरे वक्ष्यते योगविभागः नामकः इति। यत् सूत्रम् अस्माभिः इदानीं दृश्यते तत्रैव सूत्रे विभागद्वयं क्रियते कदाचित्, तस्य योगविभागः इत्युच्यते। योगविभागः नाम योगस्य विभागः, सूत्रस्य विभागः, सूत्रस्य विभागः क्रियते। तत् क्वचित् ग्रन्थेषु सूत्रविभागो न दृश्यते, तादृशस्थलेषु सूत्राणां सङ्ख्या न्यूना भवति। यत्र योगविभागः क्रियते तत्र सूत्रसङ्ख्या अधिका भवति। एवञ्च अतः मयात्र प्रायः 4000 सूत्राणि सन्ति इत्युल्लिखितम्। एवञ्च अष्टाध्यायी इति ग्रन्थस्य रचयिता भवति भगवान् पाणिनिः। अध्यायानां संख्या भवति 8 अध्यायाः, पादसंख्या 32, सूत्रसंख्या प्रायः 4000 सूत्राणि। सूत्राणि सन्ति, कीदृशानि सूत्राणि सन्ति पाणिनीयाष्टाध्याय्याम् इति चेत् अत्र अस्ति भवतां पुरस्तात्। संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्। संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्। सूत्राणि षड्विधानि सन्ति, तथा हि संज्ञा अर्थात् संज्ञासूत्राणि, परिभाषासूत्राणि, विधिसूत्राणि, नियमसूत्राणि, अतिदेशसूत्राणि, अधिकारसूत्राणि इत्येवं षड्विधानि सूत्राणि व्याकरणशास्त्रे दृश्यन्ते। कस्यचित् जन्म जायते मनुष्यस्य, मनुष्यः जन्म प्राप्नोति, तस्यैव नामकरणं न क्रियते, तर्हि तेन सह व्यवहारे अस्माभिः बहवः क्लेशाः अनुभूयन्ते इति तु लोके सिद्धम्। यथा कश्चित् जन्म प्राप्तवान्, तस्य नामकरणं न कृतम्, तस्य आह्वानं कथं करिष्यते अस्माभिः? प्रायः सम्बोधनैः आह्वानं क्रियते, ए ओ इत्यादि वर्णानाम् उपयोगेन आह्वानं करिष्यते, परन्तु तेनापि बहवः क्लेशाः उत्पद्यन्ते। समूहे सन्ति जनाः, तत्र एकस्य आह्वानं कर्तव्यं, तदा अस्माभिः क्लेशः अनुभूयते, अथवा इत्येतादृशः क्लेशाः सन्ति। एवञ्च शास्त्रेऽपि एतादृशाः क्लेशाः भवेयुः। इदानीम् अपरमपि किञ्चित् अथवा इत्युक्तं मया, अतः अपरमपि किञ्चित् वक्ष्ये। बहवः छात्रास्सन्ति, युगपत् सर्वेषां छात्राणाम् एकैकशः नामोच्चारणं कृत्वा आह्वानं न सम्भवति, अतः विभागः क्रियते। यथा बीए छात्राः, एमए छात्राः, अथवा शास्त्री आचार्यछात्राः इत्येवं विभागः दृश्यते। कुतः शास्त्रीछात्राः इति वक्तव्यम्? शास्त्रीछात्राः आगच्छन्तु इत्युच्यते। कुतः शास्त्रीछात्राः आगच्छन्तु इति उच्यते? एकैकश सर्वेषां नाम उच्चार्य आह्वानं कुर्मः। वृथा शास्त्री इति वक्तव्यं वा? सर्वेषाम् एकैकश नाम आह्वानं कुर्मः। देवदत्त, यज्ञदत्त, मित्र, राम, कृष्ण, गोविन्द, एवं नाम उच्चारणे क्लेशः नास्ति, परन्तु यदि एकस्यां कक्षायां शताधिकाः छात्राः स्युः, तर्हि तेषाम् आह्वानं कथं क्रियते? एकैकशः आह्वानं क्रियते चेत् आह्वाने एव कालः गमिष्यति. अतस्तावत् एकस्य समूहस्य शास्त्री इति काचित् संज्ञा दत्ता. मया कुतः एतदुच्यते इत्युक्ते, अस्माकं प्रथमसूत्रभेदः अस्ति संज्ञा इति. षड्विधेषु सूत्रेषु प्रथमम् अस्ति संज्ञासूत्रमिति. इह शास्त्रेऽपि, अत्र शास्त्रे अस्माभिः सूत्रलक्षणे उक्तम् अल्पाक्षरम् इति. यदि संज्ञा न दीयते एकस्य समूहस्य, तर्हि तत्र अस्माकं प्रत्येकं क्वचित् अग्रे विधिसूत्रेषु, किमिति अग्रे उच्यते, विधिसूत्रेषु एतेषां यदा उपयोगः भवति वर्णानां, तदा तत्र क्लेशः अनुभविष्यते. कीदृशाः क्लेशाः इति अग्रे मया विधिसूत्रवर्णनविचारे वक्ष्यते. संज्ञासंज्ञीप्रत्यायकं सूत्रं संज्ञासूत्रं भवति. यत्र एकस्य पिण्डस्य, अर्थात् इदानीम् अस्माभिः प्राप्तस्य मनुष्यस्य अवयवात्मकस्य, यस्य शरीरे हस्तपादास्सन्ति इत्यादि अवयवास्सन्ति, तादृशस्य एकस्य पिण्डस्य नामकरणं क्रियते देवदत्ता इति. संज्ञी भवति यः पिण्डः भवति, स संज्ञी भवति. छात्राणां समूहः अस्ति, तत्र समूहे विद्यमानाः छात्रास्सन्ति, ते सर्वेपि संज्ञिनः भवन्ति. तेषां शास्त्री, आचार्य इति संज्ञा भवति. इत्येवं संज्ञासंज्ञीविभागः. तस्य संज्ञासूत्रम् इत्युच्यते. प्रायः संज्ञासूत्रविषये कस्यापि सन्देहः नास्ति इति भावयामि. इति भावयित्वा अग्रे परिभाषासूत्राणां विषये चिन्तयामः. परिभाषासूत्राणि अनियमे नियमकारिणी परिभाषा इत्युच्यते. अनियमे नियमकारिणी परिभाषा. क्वचित् सूत्रेषु नियमाः न भवन्ति. नियमः अनियमे नियमकारिणी नाम लौकिकमुदाहरणं किञ्चित् यदि परिशीलयामः, तर्हि डिसिप्लिन् इति उच्यते खलु. यदि शालासु छात्राणाम् आगमनं दशवादने भवेत् इति नियमः यदि न क्रियते, तर्हि किं भवेत्? छात्राः यथेच्छम् आगच्छेयुः. कस्यचित् समयः भवेत् द्वादशवादने, कस्यचित् एकवादने, कश्चित् नागच्छेदेव, कश्चित् अस्तु गमनसमयः अन्ततो गत्वा सप्तवादने कदाचित् रात्रौ आगच्छेत् इत्येवम् अनियमः प्रसज्यते. एतादृशः अनियमः न भवेत् इति कृत्वा विद्यालयेषु कश्चन नियमः क्रियते. कीदृशः नियमः? प्रातः दशवादनतः सायं पञ्चवादनपर्यन्तं विद्यापीठस्य समयः, विद्यालयस्य समयः इति नियमः क्रियते. तद्वदेव अत्र शास्त्रेऽपि क्वचित् सूत्रेषु अनियमः अस्ति. कुतः अनियमः इत्युक्ते, ते दोषाः न. अनियमः नाम सूत्रस्य अल्पाक्षरत्वं यथा स्यात् इत्येतदर्थम् अनियमः क्रियते. अनियमे कृते तत्र अनियमः अस्ति चेदपि तदर्थं तेषां निमित्तं नियमार्थं कानिचन सूत्राणि सन्ति, तानि परिभाषासूत्राणि इत्युच्यन्ते. यथा शालासु नियमकल्पनाय काचित् समितिः भवति, तथैव सूत्रेषु नियमकल्पनाय काचित् समितिः अस्ति. तस्यां समितौ परिभाषासूत्राणि भवन्ति. एतद् भवति परिभाषासूत्रस्य लक्षणम्. अनियमे नियमकारिणी, यत्र अनियमः भवति तत्र नियमं करोति इति परिभाषासूत्राणि. अनियमे नियमकारिणी परिभाषा इत्युच्यते. ततः आयाति विधिसूत्रम्. आदेशादिविधायकं सूत्रं विधिसूत्रं भवति. विधि नाम कार्यमित्यर्थः। कार्यविधायकं सूत्रं विधिसूत्रं भवति। कार्यं नाम संधिकार्यम् इति अस्माभिः प्रायः श्रुतमेव अस्ति, तदर्थं व्याख्यानं नापेक्षितम् इति भावयामि। यत्र द्वयोः पदयोः द्वयोः शब्दयोः योजनं भवति तत् कार्यं भवति, विधिः भवति। तादृशविधिनिमित्तं विधिः कीदृशं स्यात्, का विधिः, कः विधिः इत्याद्यर्थं किञ्चित् कानिचन सूत्राणि भवन्ति, तानि सूत्राणि विधिसूत्राणि इत्युच्यन्ते। उदाहरणार्थं लौकिकम् उदाहरणं किञ्चित् पश्यामः। लोकेन शालामेव स्वीकुर्मः। इदानीं नियमः क्रियते, अर्थात् एवं भवेत् इति। किं शालासु शालार्थं सर्वे छात्राः समये भवेयुः, कक्षायां तिष्ठेयुः, परन्तु तत् तिष्ठन्तु इति वक्तुं कश्चित् अपेक्षितः खलु? केवलं पुस्तकेषु नियमः भवति चेत् छात्राः पालयन्ति वा? ते न जानन्ति नियमः अस्ति इति। अतः नियमकथनार्थम् अध्यापकाः भवन्ति। तद्वदेव अत्रापि शास्त्रे कार्यस्य विधानार्थम् एवं कार्यं भवान् कुर्यात्, एवं कार्यम् अत्र भवेत्, अत्र एतादृशानि कार्याणि भवेयुः इत्येतद् वक्तुं किञ्चित् सूत्रं भवति, विधिसूत्रमिति। श्रूयते वा? सर्वैः श्रूयते वा? इदानीं विधिसूत्रविषये अस्माभिः विषयः अवगतः। इदानीं नियमसूत्राणि कानि इति पश्यामः। प्राप्तस्य विधेः नियामकम् इति विधिसूत्रविषये अस्माभिः अवगतम्, इदानीं नियमसूत्रविषये ईषदिव अवगच्छामः। प्राप्तस्य विधेः नियामकम् इति नियमसूत्रस्य लक्षणम्। अपरं लक्षणमस्ति सिद्धे सत्यारभ्यमानो विधिः। इत्युक्ते किञ्चित् कार्यम् उच्यते, किञ्चित् कार्यम् उच्यते, केनचित् एकं कार्यम् उक्तम्, केनचित् सूत्रेण एकं कार्यम् उक्तम्, तदेव कार्यम् पुनः अन्येन सूत्रेण यदि पुनः उच्यते, एकस्यैव पदस्य विषये एकं कार्यम् आरब्धं, तस्यैव विषये अपरमपि किञ्चित् उच्यते, पुनः इतोपि एकं सूत्रम् यदि उच्यते, तर्हि तत्सूत्रम् नियमार्थं भवति। विशिष्टनियमः कश्चित् उच्यते कस्यचित् विषये, यथा पुनः लौकिकम् उदाहरणं पश्यामः। शास्त्री छात्राः सर्वेपि आगच्छन्तु इत्युच्यते। केनचित् अध्यापकेन एवमुच्यते, शास्त्री छात्राः सर्वेपि आगच्छन्तु। पुनः स एव अध्यापकः तस्यां कक्षायां विद्यमानम् एकं छात्रम् उद्दिश्य वदति, रमेश भवान् आगच्छतु इति। शास्त्री छात्राः आगच्छन्तु इति वाक्येनैव यदा रमेशस्यापि आगमनं सिद्ध्यति, पुनः रमेशः रमेश भवान् आगच्छतु इति वक्तव्यं वा? न खलु। तथापि यदि उच्यते तस्य अर्थः भवति शास्त्री कक्षायां रमेशः एकः एव आगच्छतु, अन्ये मा गच्छन्तु इत्यर्थः भवति। अतः प्राप्तस्य विधेः का विधिः प्राप्ता? शास्त्री छात्राणां सर्वेषाम् आह्वानविधि आरब्धा, सिद्धः आह्वानविधिः। पुनः एका विधिः आरभ्यते, काय? रमेश आगच्छतु इति। सा नूतना विधिः। सा विधिः किं भवति? सा विधिः नियमं करोति, सः विधिः नियमं करोति। विधिशब्दः पुल्लिङ्गे अस्ति, क्षन्तव्यः। सः विधिः नियमं विधत्ते। किमिति? शास्त्रीकक्षायां यदि कश्चिदागच्छति सः रमेशः एव भवेत्, अन्ये नागच्छेयुः इत्येवं नियमसूत्रस्य स्वरूपं भवति। एवं सूत्रेष्वपि किञ्चित् सूत्रं भवति, यत् सूत्रं किञ्चित् कार्यं वदति, तत् कार्यम् अन्येन सूत्रेण सिद्धं भवति, तथापि इदं सूत्रम् आरभ्यते, एतत् दर्शयति सूत्रेऽस्मिन् किञ्चित् विशिष्टम् उच्यते। किं तत् इत्युक्ते, अनेन सूत्रेण कश्चन नियमः क्रियते, अतः नियमसूत्राणि इति काञ्चन सूत्राणि भवन्ति, अतिदेशसूत्राणि इति सन्ति। अन्यतुल्यत्वविधानम्, अन्यतुल्यत्वविधानम् इत्युक्ते अतिदेशः इत्युच्यते। अन्यस्य सदृशः भवति इति यदुच्यते। पितावत् अस्माभिः लोके दृश्यते, एवं व्यवहारः क्रियते। पितावत् पुत्रः इति व्यवहारः क्रियते, अयं पुत्रः पितावत् भवति इति अस्माभिः तुल्यत्वविधानं क्रियते न वा? तस्यैव अतिदेशः इत्युच्यते, तुल्यत्वविधानम्। पितावत् भवति पुत्रः, हा पुत्रः पितावदेव पठति, पितावदेव कार्ये दक्षः अस्ति इति यदुच्यते, तस्यैव अतिदेशः इत्युच्यते शास्त्रे। शास्त्रेऽपि अतिदेशादिकं सन्ति, तत् कथम् इति वा मया अग्रे विवरणं दीयते। एवञ्च अतिदेशसूत्राणां स्वरूपम् एवं भवति, अन्यतुल्यत्वविधानम् इति। इदानीम् अधिकारसूत्रस्य लक्षणानि, अधिकारसूत्रस्य लक्षणं परिशीलयामः। एकत्र उपात्तस्य अन्यत्र व्यापारः अधिकारः इत्युच्यते। एकं बहु भारतीयसंस्कृतिः अस्माकं, वयं भगवतः विषये भगवान् अस्ति इत्यादि विषयं वयं जानीमः। एतदेव उदाहरणत्वेन मया स्वीक्रियते अस्मा। एकत्र उपात्तस्य अन्यत्र व्यापारः अधिकारः। भगवान् कुत्र अस्ति? अस्माभिः प्रायः एवमुच्यते, भगवान् स्वर्गे अस्ति अथवा आकाशदेशे क्वचिदस्ति इति अस्माकं व्यवहारः अस्ति, प्रत्यक्षरूपेण तत्र अस्ति। सः तत्र तिष्ठति, तत्र स्थित्वा तस्य तत्र किमपि कार्यं न भवति। तस्य कार्यं कुत्र भवति?
भूमौ ये जनास्सन्ति तेषु तस्य कार्यं भवति। सः यद्यपि तत्र अस्ति तथापि सः तस्य अंशभूता तस्य अंशास्तावत् अत्र अस्मासु सर्वेषु शरीरेषु वर्तते। सर्वेषु प्राणभूतेषु प्राणहीनेषु सर्वत्रापि सः वर्तते। तस्य कार्यं तावत् अत्र भूम्यां भवति, भूमौ भवति, यतोहि स एव तत्र स एव अधिकारी, अस्य सम्पूर्णस्य भूमण्डलस्य अधिकारी सः भवति। अतः सः अधिकारसूत्रवत्। अधिकारसूत्रेष्वपि अयमेव क्रमः, सूत्रम् एकत्र तिष्ठति, एकत्र तस्य पठनमस्ति। अष्टाध्याय्याम् एकत्र अधिकारसूत्राणि पठ्यन्ते, एकत्र सर्वसमूहे न सन्ति, यत्र अपेक्षिता तत्र एकः अधिकारः पठितः, तदनन्तरं कानिचन सूत्राणि पठितानि क्रमेण। तत्र यत्र तत् सूत्रमस्ति तत्र सूत्रस्य उपयोगः नास्ति, यत्र तत् सूत्रमस्ति तत्र सूत्रस्य कोऽपि उपयोगः नास्ति। कुत्र उपयोगः? यथा भगवान् तत्र स्थित्वा भूमौ विद्यमानानां जनानां आत्मनि वर्तते, जनेषु वर्तते, तथैव अधिकारसूत्राण्यपि स्वस्थाने न भवन्ति, स्वस्थाने तेषां कार्यं न भवति, तदनन्तरं विद्यमानानि यानि अन्यानि सूत्राणि सन्ति, एकस्य सूत्रस्य अनन्तरं क्रमेण अन्यानि सूत्राणि आगच्छन्ति, तेषु सूत्रेषु अधिकारसूत्रस्य कार्यं भवति। एकम् उदाहरणं किञ्चिदिव पश्यामः। प्रत्ययः इति एकं सूत्रम् अस्ति, प्रत्ययः इति एकं सूत्रम्, तृतीयाध्यायस्य प्रथमपादे प्रथमं सूत्रमिदं प्रत्ययः इति। तेन सूत्रेण तत्र यत्र तत् सूत्रं पठितं किमपि न उच्यते, केवलं प्रत्ययः इत्युच्यते। अयं वर्णः एकस्य वर्णानां समूहः, एकं पदम् एतत् प्रत्ययः इति। तत्र यत्र तत् सूत्रं पठितं तत्र तस्य न किञ्चित् उपयोगः, भूमौ किमपि कार्यं नास्ति तत्र। तदनन्तरं कानिचन सूत्राणि पठितानि क्रमेण, परश्चाद्युदात्तश्च अनुदात्तौ सुप्पितौ गुप्तिश्चिद्भ्यः सन् सन् सन्नित्येतदस्ति खलु, सः कः सन्नित्यनेन किमभिधीयते इत्युक्ते तत्र यः प्रत्ययः इति अस्ति सः अत्र आगच्छति, सन्निति प्रत्ययः भवति इति। तत्र प्रत्ययः इत्यस्य कोऽपि अर्थः नास्ति, अत्र आगच्छति चेत् सन्नित्येतत् प्रत्ययः भवति, नित्येतत् प्रत्ययः भवति, क इति प्रत्ययः भवति इत्येवं क्रमेण प्रत्ययः इत्येतत् प्रतिसूत्रं गच्छति। एवं गत्वा एतत् प्रत्ययः इति सूत्रमस्ति खलु पञ्चमाध्यायस्य समाप्तिपर्यन्तं गच्छति, वयं कालान्तरे तद् द्रक्ष्यामः। एवञ्च अधिकारः नाम एकत्र उपात्तस्य अन्यत्र व्यापारः इत्यधिकारः। अधिकारस्य शास्त्रे लक्षणम् एवमुच्यते, स्वस्थले लक्ष्यसंस्कारकबोधाजनकत्वे सति स्वोत्तरवर्ति विधिशास्त्रैक वाक्यतापन्नत्वम् अधिकारत्वम्। द्रष्टुं वाक्यं बहु विस्तृतमस्ति, बहु कठिनं च दृश्यते, परन्तु अस्य अर्थः बहु सरलः। प्रायः शास्त्रेषु वाक्यानि दृष्ट्वा अस्माकं भीतिः जायते, परन्तु शास्त्राणां वाक्यानां तात्पर्यं बहु सरलं भवति। पश्यन्तु मया सर्वादौ एकम् उदाहरणं प्रदर्शितं, भगवान् तत्र अस्ति, भूमौ तस्य कार्याणि भवन्ति, तत्र यद्यपि तस्य किञ्चिदपि कार्यं न भवति इति मया किञ्चिदुक्तं, तथैव पश्यन्तु स्वस्थले लक्ष्यसंस्कारकबोध अजनकत्वे सति। स्वस्थले, स्वस्थलं नाम यत्र तत् सूत्रं तिष्ठति तत्र, लक्ष्यसंस्कारक, लक्ष्यं नाम कार्यं, संस्कारः नाम विधि, संस्कारः नाम अस्माभिः उदाहरणार्थं कर्ड् रैस् निर्मीयते, दध्यन्नं निर्मीयते। दध्यन्नं निर्मीयते इत्युक्ते प्रायः अस्माभिः केवलं दधि स्थापयित्वा लवणं स्थापयित्वा मिश्रणं कृत्वा न दीयते। तत्र अस्माभिः कदाचित् दाडिमफलस्य खण्डाः स्थाप्यन्ते, द्राक्षाफलानि स्थाप्यन्ते, मरीचिका स्थाप्यते। एतद् यत् स्थापनं भवति खलु विभिन्नानाम् एतेषां, तेषां संस्कारः इत्युच्यते, एवं पाकसंस्कारः। अत्र शास्त्रे स्वस्थले लक्ष्यसंस्कारः सन्धि इत्यादि कार्येषु यत् विधिः विधीयते, एवं वर्णद्वयोः योजनं कर्तव्यम्, एतत्सर्वं संस्कारः भवति। एवं स्वस्थले लक्ष्यसंस्कारकबोध अजनकत्वे सति अधिकारसूत्राणां लक्षणमुच्यते। स्वस्थले लक्ष्यसंस्कारकबोधः यद्यपि नास्ति, लक्ष्यसंस्कारः कः कः किं कार्यमस्य इति यद्यपि स्वस्थले बोधः न जायते, तथापि स्व उत्तरवर्ति, उत्तरवर्ति नाम अनन्तरम् इत्यर्थः, स्व अनन्तरवर्ति विधिशास्त्रेषु, विधिशास्त्रेषु गत्वा एकवाक्यतां प्राप्नुवन्ति। एकवाक्यता नाम इदानीं प्रत्ययः, प्रत्ययः भवति इत्यर्थः एव लभ्यते। गुप्तिचिकिद्भ्यः सन् इत्यस्ति, तत्र एतेभ्यः धातुभ्यः सन् भवति। किं भवति सन् भवति इत्युक्ते प्रत्ययः इति आयाति। तदा एतस्य द्वयोः अपि योजनेन तत् एकवाक्यतां प्राप्नोति। वाक्यद्वयस्य योजनं प्रत्ययः भवति इति एकं वाक्यं, गुप्तिचिद्भ्यः सन् भवति इति द्वितीयं वाक्यम्, एवं वाक्यद्वयं योजयन्ति। तदा किं भवति, गुप्तिचिद्भ्यः सन् इति प्रत्ययः भवति इति एकं वाक्यम्। एवञ्च स्वोत्तरवर्ति विधिशास्त्र एकवाक्यतापन्नत्व, एकवाक्यतां प्राप्नोति। कः अधिकारसूत्रम्? किम् अधिकारसूत्रम्? स्वस्थले यद्यपि कार्यं न जनयति, तथापि उत्तरसूत्रेषु विधिषु सूत्रेषु एकवाक्यतां प्राप्नोति। तादृशं यद्भवति तत् अधिकारत्वं, तस्य अधिकारत्वं, तस्य अधिकारः इति नाम, अधिकारसूत्रम् इति नाम तस्य। एवञ्च अधिकारत्वम् इत्यस्य लक्षणम् एतद् भवति, स्वस्थले लक्ष्यसंस्कारकबोध अजनकत्वे सति स्वोत्तरवर्ति विधिशास्त्र एकवाक्यतापन्नत्वम् अधिकारत्वम् इत्येवं शास्त्रे अधिकारस्य लक्षणम् उक्तम्। उदाहरणानि पश्यामः। संज्ञासूत्रस्य उदाहरणं भवति वृद्धिरादैचिति। वृद्धिरादैच् आत् ऐच्, आत् नाम आकारः, ऐच् नाम ऐ औ इति वर्णत्रयम्। वृद्धिरादैच् इति उच्यते, आदैच् इत्यनयोः वृद्धिः इति संज्ञा। अदेङ्गुणः, अत् एङ् अकार एकार ओकार इत्येतेषां गुणः इति संज्ञा। हलन्त्यमिति संज्ञा, एवं संज्ञासूत्राणि। एतेषां विवरणं मया अग्रिमकक्षायां प्रदास्यते, कथं वृद्धिरादैचिति एवमेव किमर्थम् उक्तम् इत्यादि विवरणम् अग्रे वक्ष्यते। परिभाषासूत्रं, तस्मिन्निति निर्दिष्टे पूर्वस्य इति एका परिभाषा, अनेन नियमः क्रियते, अतः परिभाषासूत्रम् इत्युक्तम्। विधिसूत्रं, वृद्धिरेचि आद्गुणः तस्य लोपः। नियमसूत्रं, पतिः समास एव कृत्तद्धित समासाश्च इति। एवम् अन्यानि, एतत्तु मया उदाहरणरूपेण एकं वा सूत्रद्वयं वा अत्र उल्लिखितं। बहूनि सूत्राणि सन्ति, अतिदेशसूत्रं, स्थानिवदादेशो नल्विधौ, स्थानिवत् आदेशः अनल्विधौ इति। अधिकारसूत्रं, प्रत्ययः पूर्वत्रा सिद्धम् इत्येवं क्रमेण सूत्राणाम् उदाहरणानि मया अत्र दर्शितानि। अन्येपि बहवः विचाराः अत्र वक्तव्यास्सन्ति एतेषां विषये, परन्तु यदि अति उच्येत अजीर्णं स्यात्, न्यूनमुच्येत तर्हि अपि क्लेशः। अतः एतावद् यदुच्यते तदादौ गृह्यतां मनसि, तदाकलय्य अग्रिमकक्षायां वयम् एतेषां विषये
विस्तार रूपेण किञ्चित् इतोपि द्रक्ष्यामः। अत्र च इदानीम् अद्य अस्माभिः अधीतः विषयाः सन्ति सामान्यपरिचयः दृष्टः, यत्र रचयिता कः, अध्यायसङ्ख्या कति अध्यायाः सन्ति, पादसङ्ख्या पादाः कति सन्ति, सूत्राणि कति सन्ति इत्यवलोकितम्। रचयिता भगवान् पाणिनिः, अध्यायसङ्ख्या अष्टौ, पादसङ्ख्या द्वात्रिंशत्, सूत्रसङ्ख्या च प्रायः चतुस्सहस्रसूत्राणि। सूत्राणां भेदाः अवगताः, यथा संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्। संज्ञा नाम संज्ञा संज्ञी प्रत्यायकं सूत्रम्, उदाहरणं दृष्टं वृद्धिरादैः इत्यादि। परिभाषा सूत्राणि नाम अनियमे नियमकारिणी परिभाषा। विधिः नाम आदेशादिविधायकं सूत्रं विधिः भवति। नियमः नाम प्राप्तस्य विधेः नियामकम्, सिद्धे सति आरभ्यमानो विधिः नियमाय भवति इति नियमसूत्रम्। अतिदेशसूत्रं नाम अन्यतुल्यत्वविधानम्, अन्येषां वत् भवति इति, अन्यस्य वत्वा अन्येषां वत्वा। अधिकारसूत्रं नाम एकत्र उपात्तस्य अन्यत्र व्यापारः अधिकारः, तस्य शास्त्रे लक्षणमेवमस्ति, स्वस्थले लक्ष्यसंस्कारकबोध अजनकत्वे सति स्वोत्तरवर्तिविधिशास्त्रैकवाक्यतापन्नत्वम् अधिकारत्वम्। संज्ञासूत्रस्य च उदाहरणानि दत्तान्यत्र, संज्ञासूत्रस्य उदाहरणानि वृद्धिरादिषडेङ्गुणः इत्यादीनि, परिभाषासूत्रस्य उदाहरणानि तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य इत्यादीनि, विधिसूत्रस्य उदाहरणानि वृद्धिरेचि आद्गुणः तस्य लोपः इत्यादीनि, नियमसूत्रस्य उदाहरणानि पतिसमास एव कृत्सद्धितसमासाश्च इत्यादीनि, अतिदेशसूत्रस्य उदाहरणानि स्थानिवदादेशौ अनल्विधौ अजःपरस्मिन् पूर्वविधौ इत्यादीनि, अधिकारसूत्रस्य उदाहरणानि प्रत्ययः पूर्वत्रासिद्धम् इत्यादीनि। इत्येवम् अस्माभिः अद्य बहवः विचाराः अवगताः सन्ति। अन्यान् विचारान् वयम् अग्रिमकक्षायां द्रक्ष्यामः। यदि प्रश्नाः सन्ति चेत् प्रष्टुमर्हन्ति। प्रश्नाः सन्ति चेत् प्रश्नार्थं मुक्त अवकाशः अस्ति सर्वेषाम्। हरिः ओम्।
अतिदेश सूत्राणि नाम अन्यतुल्यत्व विधानम् इत्युक्तम्। अन्यतुल्यत्व विधानम् इत्युक्तौ उदाहरणं पश्यन्तु। कश्चित् गुरुः किञ्चित् कार्यक्रमार्थं गच्छति, तत्र कार्यक्रमे गन्तुं तस्य आह्वानमस्ति, परन्तु कार्यान्तरवशात् सः तत्र गन्तुं न शक्नोति, अतः सः किं करोति, स्वशिष्यं तत्र प्रेषयति। तत्र यत्र कार्यक्रमः आसीत् तत्र शिष्या यत् यत् स्थानं गुरोः देयमासीत् तादृशमेव स्थानं शिष्याय ददति। यः तत्र नेता भवति सः यत् स्थानं गुरोः आसीत् तदेव स्थानं शिष्याय ददाति, अर्थात् शिष्यं गुरुवत् व्यवहरति इत्यर्थः। तादृशं यदि भवति तर्हि तस्य अतिदेशसूत्रम् इत्युच्यते। प्रायः अतिदेशविषये अवगतं स्यात्, अग्रिमकक्षायां विस्ताररूपेण वक्ष्यते। अद्यतनकक्षाम् अत्रैव समापयामः। अतिदेशसूत्रविषये यदि नावगतं चेत् अग्रिमपर्यायसमीपे विशिष्टम् उदाहरणं किञ्चिदस्ति, तस्य उदाहरणस्य कालः अधिकः अपेक्षितः, अतः उदाहरणेन सहितम् अहं तद् वक्ष्यामि, तदवश्यं सर्वैः तस्य विषये अवगम्यते इत्यत्र नास्ति सन्देहः। अधुना तावत् एनां कक्षाम् अत्रैव उपसंहरामः, अग्रिमकक्षायाम् अस्य इतोपि विस्ताररूपेण चर्चां कुर्मः। तावदभ्यन्तरे एते ये विचारास्सन्ति तान् सम्यक् अवगच्छन्तु, अधिगत्य आगच्छन्तु इति प्रार्थना। अग्रिमकक्षा तावत् द्वितीयदिनाङ्के भानुवासरे, अग्रिमभानुवासरे द्वितीयदिनाङ्के भविष्यति। मङ्गलं कृत्वा कक्षामेनां समापयामः। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन भूतागिरः पुंसां विमलैः शब्दवारिभिः समश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। सर्वेभ्यो धन्यवादाः।